एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य केपी शर्मा ओली अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य प्रस्तावः औपचारिकोपवेशे विमर्शनयोग्यो नास्ति हेतोः स्थायी समितेः उपवेशे आत्मनः उपस्थितिर्न भवतीति निगदति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य गतदिने काष्ठमण्डपे प्रारब्धाय स्थायी समितेः उपवेशाय पत्रम् विलिखता प्रधानमन्त्रिणा ओलिना अध्यक्षस्य प्रचण्डस्य प्रस्ताव विषयके उपवेशे आत्मनः स्थितिर्नभवतीति ज्ञापितं वर्तते। दलस्य आन्तर समस्यायाः समाधान कारिण्या एकल कार्यसूच्या प्रारब्धस्य उपवेशस्य प्रारम्भे उप प्रधानमन्त्रिणा नेकपा दलस्य सचिवालय सदस्येन च ईश्वर पोखरेलेन प्रधानमन्त्रिणा ओलिना पत्रम् प्रवाच्य स्थायी समितेः उपवेशः ज्ञापितः इति नेकपा दलस्य प्रवक्ता नारायणकाली श्रेष्ठः अबोधयत्। प्रधानमन्त्रिणा ओलिना पत्रे स्थायी समितेः सर्वसम्मत निर्णयस्य दलस्य स्थापित परम्परायाश्च वैपरीत्येन अध्यक्षेण प्रचण्डेन प्रस्तुतेन प्रस्तावेन दलस्य अभ्यन्तरे विधातव्यस्य स्वस्थस्य मर्यादितस्य च विमर्शनस्य सर्वाः सीमाः सन्त्रोट्य शत्रुतापूर्णे अन्तर्विरोधे रूपान्तरिताः सन्तीति उक्तम् वर्तते। प्रधानमन्त्रिणा ओलिना दलम् सहजे स्वस्थे च वातावरणे प्रत्यावर्तयितुम् अध्यक्षस्य प्रचण्डस्य प्रस्ताव निःशपथम् प्रत्यावर्तनीयः इति आत्मनो दृढता यथावत् अस्तीति उक्तम् वर्तते। स्थायी समितेः उपवेशेन दलैकीकरणस्य अवशिष्ट कार्याणाम् पूरणम् महाधिवेशनस्य पूर्व कार्य सम्पादनम् कोरोना विरोधिनी युद्धे प्रभावकारिता सहजनञ्चेति विषयेषु कार्यसूच्याम् निर्मितायम् सत्याम् आत्मनः सक्रिय सहभागिता भविष्यतीति प्रधानमन्त्रिणा ओलिना पत्रे स्पष्टीकृतम् वर्तते। प्रधानमन्त्रिणः पत्र प्राप्तेः अनन्तरम् अध्यक्षेण प्रचण्डेन दलैकताम् केन्द्रे निधाय समस्यायाः समाधानत्वेन विमर्शनम् अग्रे वर्धापयितुम् अनुरुद्धमिति प्रवक्ता श्रेष्ठः असूचयत। उपवेशस्य पश्चात् पत्रकारैः सह नेकपा दलीय स्थायी समितेः सदस्य भीम रावलः अवदत् स्थायी समितेः केन्द्रीय समितेश्च उपवेशेनैव दलस्य सर्वासाम् समस्यानाम् समाधानम् अन्वेष्टुम् शक्यते। नेता रावलः अतर्कयत् उपवेशे प्रधानमन्त्री केपी शर्मा ओली अनुपस्थितः सन्नपि पत्रस्य माध्यमेन स्वकथनम् प्रस्तुतमिति कारणात् राजनीतिकरूपेण सहभागी अभवत्। उपवेशेन अध्यक्षद्वयस्य प्रस्तावयोः पत्राणाम् च अध्ययनाय अनौपचारिक विमर्शनाय च सप्तानाम् दिनानाम् समयम् दातुम् निर्णीतम् अस्ति। स्थायी समितेः अपरूपवेशः अस्यैव मार्गमासस्य अष्टाविंशे दिवसे दिवा एकवादने धुम्वारायिवर्तिनी दलस्य केन्द्रीय कार्यालये व्यवस्था। एवमेव गतदिवसीय उपवेशेन केन्द्रीय समितेः अस्यैव मार्गमासस्य पञ्चविंश दिवसाय निर्धारितम् उपवेशम् पौषमासस्य पञ्चमदिवसम् यावत् स्थगयितुमपि निर्णीतमिति दलस्य प्रवक्ता श्रेष्ठः ज्ञापितवान्। सर्वकारेण परराष्ट्रनीतिः सार्वजनिकृता अस्ति। परराष्ट्र मन्त्रालय गतदिने पत्रकार सम्मेलनमा आयोज्य परराष्ट्रमन्त्री प्रदीप कुमार ग्यावाली एतत् विक्रमाब्दीयां नेपालस्य परराष्ट्रनीतिम् सार्वजनिकृतवान्। एतस्याम् नीतौ प्रतिवेशि प्रवृत्तिभिः मित्रराष्ट्रैः सह नेपालेन सार्वभौम समानतायाः पारस्परिक समानस्य लाभस्य च आधारेण द्विपक्षीय सम्बन्धः विस्तार्यते इत्युल्लिखितमस्ति। प्रतिवेशी राष्ट्रैः सह स्वतन्त्र सन्तुलितश्च सम्बन्धः संस्थाप्यते। नेपालस्य भूमि प्रतिवेशी राष्ट्रस्य प्रतिकूलनत्वेन प्रयोक्तुम् न दीयते। सीमायाः सुरक्षणम् व्यवस्थापनम् च विधीयते। संयुक्त हितस्य विषये द्विपक्षीयम् त्रिपक्षीयम् बहुपक्षीयम् च सहकार्यम् प्रवध्यते चेति विषयाः नीतौ समाविष्टाः सन्ति। पत्रकार सम्मेलने परराष्ट्रमन्त्री ग्यावाली संविधानम् क्रियान्वीय सर्वकार निर्माणस्य अवस्थायम् राष्ट्रम् स्थिरताम् प्रति गच्छदस्तीति विषयम् समाविष्टव्यम् अभूत् इत्यतः परराष्ट्रनीतिः सार्वजनिकृतेति संसूचितवान्। राष्ट्रपतिना विद्यादेवी भण्डारिणा नेपालस्य संविधानस्य अनुसारेण मन्त्रिपरिषदः परामर्शे ह्य अध्यादेशद्वयम् क्रियान्वितम् वर्तते। राष्ट्रपतिना यौन हिंसा विरुद्धानाम् कतिचित् अधिनियमानाम् संशोधकः एतद् विक्रमाब्दीयः अध्यादेशः सामाजिक सुरक्षा विषयकः प्रथम संशोधकः एतद् विक्रमाब्दीयः अध्यादेशश्च क्रियान्वितौ इति राष्ट्रपति कार्यालयस्य प्रवक्त्रा बद्रीनाथ अधिकारिणा प्रकाशितायाम् विज्ञप्तौ लिखितम् वर्तते। कोरोना संक्रान्तानां जनानां उपचारे द्वैध शुल्क ग्राहकाः चिकित्सालयाः दण्ड्यन्ते इति स्वास्थ्य मन्त्रालयेन ज्ञापितं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः सर्वकारात् सेवाग्राहीभ्यश्च उभय पक्षाभ्याम् शुल्क ग्राहका नाम चिकित्सालयानाम् अनुगमनाय दण्डनाय च आवश्यकीं प्रक्रियाम् अग्रे वर्धापयितुं निर्णीतमिति अज्ञापयत्। प्रवक्ता डाक्टर गौतमः कोरोना संक्रमणस्य उपचाराय सूचीकृतैः चिकित्सालयैः द्वैतशुल्कं गृह्यमाणमस्ति इति जनानुवेदनस्य प्राप्तेः कारणात् चिकित्सालयानाम् अनुगमनं विधाय दण्डनाय समस्या व्यवस्थापन कार्यदलेन आवश्यक कार्यं कार्यते इति च अज्ञापयत्। ह्य आराष्ट्रं सहस्रं द्वापञ्चाशदधिक सप्तशतञ्च जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। एतदनु नेपाले ह्यस्तनावधि कोरोना संक्रमणात् मुक्तानां जनानां समग्र संख्या लक्षद्वयं पञ्चविंशतिः सहस्राणि पञ्चाधिकाष्टशतञ्च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्य अतिरिक्तेषु षण्णवत्यधिक सहस्रे जनेषु कोरोना संक्रमणं पुष्टीभूतम् अस्ति। आराष्ट्रं षण्णां सहस्राणां पञ्चनवत्यधिक शतचतुष्टयस्य च निदर्शनानां पीसीआर विधिना परीक्षणं विहितं सत् षट्शते अष्टाशीत्यांच पुरुषेषु अष्टाधिक शतचतुष्टये महिलासु च संक्रमणं पुष्टीभूतं वर्तते। ह्यस्तनावधि नेपाले कोरोना विषाणोः त्रयोदश सहस्राणि द्व्यशीत्यधिक पञ्चशतञ्च सक्रिय संक्रान्ताः जनाः सन्ति। कोरोना संक्रमणेन ह्य सप्तदश जनाः मृताः। नेपाले कोरोना संक्रमणेन ह्यस्तनावधि सहस्रं चतुर्नवत्यधिक पञ्चशतञ्च जनाः मृताः सन्ति इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। चितवन जनपदे गत सायं दुरापन्नायं पृथक पृथक यान दुर्घटनायं एकः प्रहरी मोटरसाइकल यान चालकश्च अम्रियेताम्। राप्ते नगरपालिकायाः षष्ठवडा क्षेत्रवर्तिनी पूर्व पश्चिम राजमार्गे पूर्व दिशं प्रति प्रस्थीयमानेन ट्रैक्टर यानेन तस्याः एव दिशा आगच्छत मोटरसाइकल यानं प्रहरितं सत् चितवन स्थानीय प्रहरी कार्यालये कार्यरतः प्रहरी पदीयः सुजन निरूपाने मृतः इति कार्यालयस्य प्रवक्ता सूर्य थापा अज्ञापयत्। एवमेव खैरनी नगरपालिकायाः प्रथमवडा क्षेत्रस्थिते बहेडा चतुष्पथे स्कार्पियो यानेन मोटरसाइकल यानं प्रहरितं सत् मोटरसाइकल यान चालक खैरनी नगरपालिकायाः सप्तमवडा क्षेत्रस्य विजेन्द्र चौधरी मृतोऽस्ति। ट्रैक्टर स्कार्पियो यानयोः चालकौ प्रहरिणा नियन्त्रितौ स्तः। एवमेव डोटी जनपदस्य बोक्टान स्फुड सिल ग्रामपालिकायाः सप्तमवडा क्षेत्रे जीपयानस्य दुर्घटनायां चत्वारो जनाः मृताः अन्ये चत्वारः आताश्च सन्तीति प्रहरिणा ज्ञापितं वर्तते। दुर्घटनायां निपतितानां जनानां शिरसि पृष्ठभागे च गभीरेण आघातः सम्भूतोऽस्तीति दीपायलवर्तिनः सुदूरपश्चिम प्रदेश प्रहरी कार्यालयस्य प्रहरी वरिष्ठोपरीक्षकः मुकेश कुमार सिंहः ज्ञापयति। सर्वकारेण राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य कार्यावधि वर्षावधये वर्धितो वर्तते। मन्त्रिपरिषदः अस्यैव मार्गमासस्य पञ्चदशे दिवसे उपविष्टेन उपवेशेन प्राधिकरणस्य अवधि अस्य वर्षस्य पौषमासस्य दशमदिवसतः वर्षावधये वर्धितो वर्तते। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ भाषते दुर्गम क्षेत्रे स्थितान् जनान् विपन्न नागरिकांश सश्रेष्ठान् कारयितुं संचार माध्यमैः कार्याणि विधातव्यानि इति समाचारः।